नमस्सर्वेभ्यः। अद्य प्रौढमनोरमायाः संज्ञाप्रकरणे नवमः पाठः, नवम्बर् मासस्य नवमः दिनाङ्कः।
येनाक्षरसमां नवमधिगम्यमहेश्वरात् कृत्स्नं व्याकरणं प्रोक्तं तस्मै पाणिनये नमः। ध्यायं ध्यायं परं ब्रह्म स्मारं स्मारं गुरोर्गिरः सिद्धान्तकौमुदी व्याख्यां कुर्मः प्रौढमनोरमाम्। प्रौढमनोरमायां मूलमात्रं पठामः आदौ, यावत् अधीतं तावत्। हयवरट् हकारोपदेशः अट् अश् हश् इन् ग्रहणेषु हकारग्रहणार्थः अर्हेण अड्व्यवायेऽपि इति णत्वम्। देवाः सन्ति भो भगो इति रोः यत्वम्। देवो हसति हसि च इति उत्त्वम्। लिलिहिड्ध्वे लिलिहिद्ध्वे विभाषेटः इति वाढः। हल् इदं सूत्रं वल् रल् झल् शल्षु हकारग्रहणार्थम्। रुदिः स्वपिः रुदादिभ्यः सार्वधातुके इति वलादिलक्षणः। इट् स्निहित्वा स्निहित्वा व्यपधात् इति वाकित्व अदाब्धां झलो झलि इति सकारलोपः। अलिक्षत् शल इगुपधात् इति सः। हलन्त्यं सूत्रेऽन्त्यमिति हलि अन्त्यम् इति विग्रहे। सप्तमी इति योगविभागात् सुप्सुपा इति वा समासः इति भावः। यद्वा षष्ठी तत्पुरुषोऽयम् स्यादेतत् हलित्येकदेशस्यैव तन्त्र आवृत्त्येकशेषान्यतममस्तु। हस्यल् इति च व्याख्यास्यते। सामीप्यम् षष्ठ्यर्थः। यद्वा मात्सुतन्त्रादि अस्तसमाहारद्वन्द्वो हल् च लु च इति लकारस्य संयोगान्तलोपः इति चेत् मैवम्। आद्ये समासस्य क्लिष्टत्वात् नहि ब्राह्मणकम्बलः इत्यादौ ब्राह्मणसमीपवर्ती अन्यदीयः कम्बलः प्रतीयते। न वा चित्रकुशब्दात् चित्रगवीणां स्वसमीपवर्ती वृक्षादिः प्रतीयते। अत एव अनन्तरादिषु न समासो अनभिधानात् इति स्पष्टमाकरे। किं बहुना ब्राह्मणस्य कम्बलः चित्रागावोऽस्य इति व्यस्तप्रयोगोऽपि तत्रानिष्टः। द्वितीयेऽपि संयोगान्तलोपो दुर्लभः। यणः प्रतिषेधारम्भात् तत्प्रत्याख्यानपक्षेऽपि झलो झलि इत्यतः झल् ग्रहणमुपकृष्य संयोगान्तस्य झलः लोपविधानाच्च। किञ्च पदार्थबोधं विना वाक्यार्थबोध असम्भवेन हल् प्रत्याहारसिद्धेः प्राक् एतत् सूत्रार्थ अबोधे प्रसक्ते तदुद्धारार्थोऽयं यत्नः। अस्याञ्चावस्थायां हल् शब्दार्थप्रसिद्धौ द्वन्द्व एव दुर्लभः। सह विवक्षाया असम्भवात्। तस्मात् यथोक्तमेव न्याय्यम्। मध्यगानामिति आद्यन्ताभ्याम् अवयवाभ्याम् अवयवी समुदायः आक्षिप्यते। तस्य च युगपत् लक्ष्ये प्रयोगाभावात् तदवयवेषु अवतरन्ती संज्ञा मध्यगेषु विश्राम्यते। न तु आद्यन्तयोः संज्ञास्वरूपान्तर्भावेण तयोः पादार्थनिर्णयात् इति भावः। स्वस्य चेति स्वं रूपम् इत्यनुवृत्तेः स्वं रूपम् च आदेरेव गृह्यते नान्त्यस्य। अन्त्येन इति अप्रधानतृतीया निर्देशात् सर्वनाम्नाम् उत्सर्गतः प्रधानपरामर्शित्वात्। आद्योच्चारणमिति यद्यपि उपदिश्यते अनेन इति करणव्युत्पत्त्या शास्त्रम् उपदेशः इति भाष्यवृत्त्यादिषु व्याख्यातम्, तथापि तत् प्रौढिवादमात्रम्। करणे घञो दुर्लभत्वात् ल्युटाबाधात् न च घः असंज्ञात्वात् प्रायेण संज्ञायाम् इति व्याख्यानस्य क्लिष्टत्वात् न शुपाधेरुपाधिर्भवति इत्यादिना भाष्यकृता अवहेलनाच्च। अत एव खापवादः हलश्च इति घञपि इह न बाहुलकन्तु अगजकगतिः। अत एव प्रक्रियन्ते शब्दायाभिः इति कर्णव्युत्पत्तिरपि परास्ता। तथा च वास्तिकम् अजभ्यां स्त्रीखलनाः स्त्रियाः खलनौ विप्रतिषेधेन इति अतो भावे एव प्रत्ययो न्याय्य इति भावः। उपदेशे अजनुनासिक इत् यद्यपि अत्र उपजीव्यत्वाद् अनुनासिकसंज्ञा प्रथमं वक्तुमुचिता, तथापि नासिकामनुगतः इति योगाश्रयणेनैव गतार्थत्वात् अनुनासिकसंज्ञासूत्रं मन्दप्रयोजनम् इति ध्वनयितुं नेहोपन्यस्तम्। उपदेशे किम् अभ्र आ अपः यद्यपि
पुण्यः उ इत्यत्र इव विधानसामर्थ्यान्न इत्त्वम् इति सुवचम्। तथापि उत्तरार्थम् अवश्यं कर्तव्यम् उपदेशग्रहणम् स्पष्टप्रतिपत्तये इह इव कृतम्। अचि किम् मनिनोमकारस्य माभूत् प्रतिज्ञायते इति प्रतिज्ञा, आतश्चोपसर्गे इति कर्मणि अङ् प्रतिज्ञा, आनुनासिक्यम् येषाम् इति विग्रहः, एवञ्च प्रतिज्ञासमधिगम्ये प्रतिज्ञाशब्दस्य लक्षणा इति क्लिष्टम् व्याख्यानम् नाश्रयणीयम्। पाणिनिपद्यम् व्याकरणम् इत्यादिषु इव लक्षणाम् विनैव निर्वाहात्। यद्यपि सूत्रकारकृतः अनुनासिकपाठः इदानीम् परिभ्रष्टः, तथापि वृत्तिकारादिव्यवहारबलेन यथा कार्यम् प्राक् स्थितः इति अनुमीयते इति भावः। ननु रलयोरिति न्यूनम् टकारस्यापि मध्यगतत्वात् इत्यत आह प्रत्याहारेषु इति व्यवह्रियन्ते इति। प्रत्याह्रियन्ते संक्षिप्यन्ते वर्णाः यत्र इति बाहुलकात् अधिकरणे घञ्। यद्यपि योगमात्रम् अकारादिसंन्यासोऽपि प्रसक्तम्, तथापि योगरूढिः इति भावः। प्रत्याहाराश्च एकचत्वारिंशदिति प्राञ्चः चतुर्दशसूत्रीस्थैः हल्भिः इद्भिः कृताः अष्टाध्याय्याम् व्यवहृताः एकचत्वारिंशत् इति तस्यार्थः। तेन सुप्तिनादीनाम् रप्रत्याहारस्य चयोद्वितीया इति वार्तिकस्य चै प्रत्याहारस्य च आधिक्येऽप्यदोषः। यत्तु न्यमन्ताड्डः इति यमन्तेष्वनिडेकयिष्यते इति च ञम् वार्तिककृता व्यवहृतः इत्याहुः तद्रभसाभिधानम्। आद्यस्य उणादिसूत्रत्वात् द्वितीयस्य व्याघ्रभूतिकारिकास्थत्वात् इत्यास्तान् तावत् एष च सङ्ख्यानियमो नातीवोपयुज्यते इति उपेक्षितः। ऊकालोच हस्तदीर्घप्लुतः इति समाहारद्वन्द्वः सौत्रम् पुंस्त्वम् वाम् काल इदेति फलितार्थकथनमिदम् विग्रहस्तु वहाकालः यस्य इति बोध्यः। ऊशब्देन स्वोच्चारणकालो लक्ष्यते। आये इति निपाता आद्युदात्ताः इति आकारः उदात्तः यच्छब्दस्तु फिट् सूत्रेण। अर्वाङ् इति अकारोऽनुदात्तः। गतवर्गे अधीतस्य किञ्चिदिव पुनरावर्तनम् कुर्मः। प्रत्याहारविषये अधीतम्। प्रत्याहारः इति शब्दः प्रत्याह्रियन्ते शब्दाः प्रत्याह्रियन्ते वर्णाः अत्र इति अधिकरणे घञ् प्रत्ययान्तः बाहुलकात् अर्थात् कृत्यञ्जटो बहुलम्। वस्तुतः अधिकरणे ल्युट् प्रत्ययः घञं बाधते, तथापि बाहुलकं कृत्यल्लिटो बहुलम् इति उक्तत्वात् बाहुलकात् अधिकरणे कदाचित् घञ् प्रत्ययः भवति इति कृत्वा घञन्तः प्रत्याहारशब्दः। कति प्रत्याहाराः इति प्रश्ने तथा च प्रत्याहारशब्देन वर्णानां संक्षेपः क्रियते। अयं योगरूढः शब्दः। इट् इस् नाट् जस्ट् द योग, दट् इस् एनिथिङ्ग् वेर् लेटर्स् आर् अब्रिविएटेड् इस् नाट् अ प्रत्याहार। यत्र यत्र वर्णाः संक्षिप्यन्ते तत्सर्वमपि प्रत्याहारः इति वक्तुं न शक्यते। यतोहि केवलेन अकारेण अ इत्युक्तेपि अष्टादश अकाराः तत्र प्रत्याह्रियन्ते, किन्तु अकारस्य प्रत्याहारशब्दत्वेन व्यवहारः नास्ति। अतः योगरूढः। सो बै कन्वेन्शन् इट् मीन्स् दोस् विच् आर् क्रियेटेड् यूसिङ्ग् द रूल् आदिरन्तेन सहेता। तदेव दीक्षितैः कौमुद्या उच्यते, आदिरन्तेन सहेता इत्येतत् सूत्रेण कृताः संज्ञाः प्रत्याहारशब्देन व्यवह्रियन्ते। ते च प्रत्याहाराः एकचत्वारिंशत् इति प्रान्तः क्रियाकौमुद्याम् एकचत्वारिंशत् प्रत्याहाराः इति प्रतिपादितम्। तदपि दृष्टम् एकस्मान् वटाः इत्यादि, किन्तु तत् एकचत्वारिंशतः अधिकाः अपि अधिका प्रत्याहाराः अपि सन्ति। सुप् तिङ् इत्यादयः प्रत्याहाराः सन्ति। दीक्षितमते रप् प्रत्याहारः अस्ति। वार्तिककारेण उपयुक्तः चैल् प्रत्याहारः अस्ति। तेषां कथं च एकचत्वारिंशदिति उच्यते इत्युक्ते माहेश्वरसूत्रस्थैः हल्भिः कृताः प्रत्याहाराः अष्टाध्याय्यां च उपयुक्ताः एव एकचत्वारिंशत्। सो दट् लिस्ट् इन्क्लूड्स् ओन्ली दोस् विच् आर् यूस्ड् इन् द अष्टाध्यायी एण्ड् विच् आर् क्रियेटेड् बै यूसिङ्ग् द कान्सनेण्ट्स् आफ् द माहेश्वरसूत्रस्. सो सुप्ति एट्सेट्रा प्रत्याहारस् विच् आर् यूस्ड् इन् द अष्टाध्यायी बट् दे आर् नाट् यूसिङ्ग् लेटर्स् आफ् द माहेश्वरसूत्र. Similarly, ra is not using a consonant. Right? Ra is akara hai samyakaha. अज्वर्णः न तु हल्वर्णः एवं चै इति प्रत्याहारः अष्टाध्याय्यान् उपयुक्तः वार्तिककारेण उपयुक्तः सो देर् आर् अ फ्यू मोर् अडिशन्स् टु द लिस्ट् आफ् प्रत्याहारस् बट् ही इस् नाट् वेरि पर्टिक्युलर् अबौट् दिस् रूल् आन् नम्बर्स् बिकास् द नम्बर् डस् नाट् रियलि म्याटर् मच् सो देन् वी हेड् उकालो ह्रस्वदीर्घप्लुतः ह्रस्वदीर्घप्लुतः इत्यत्र कथं समासः इति प्रश्नः समाहारद्वन्द्वः ह्रस्वश्च दीर्घश्च पुतश्च तेषां समाहारः इति समाहारद्वन्द्वस्य नपुंसकलिङ्गत्वं भवति प्रायेण अत्र तु सौत्रं पुंस्त्वं सूत्रे प्रयुक्तमित्यतः पुंलिङ्गत्वं दृश्यते वस्तुतः समाहारद्वन्द्वस्य नपुंसकमेव भवेत् इति भावः ततः उच्चैरुदात्तः नीचैरनुदात्तः उदात्तसंज्ञा अनुदात्तसंज्ञा तेषाम् उदाहरणान्यपि दृष्टानि ततः कौमुद्यां दृश्यते त्वरितसंज्ञा समाहारस्वरितः इत्यनेन ओके सो स्लैड् नम्बर् 3 आफ् द फैल् द पेज् नम्बर् 3 समाहारस्वरितः प्रौढमनोरमायां न व्याख्यातमिदं सूत्रं कौमुद्यामस्ति उदात्तत्व अनुदात्तत्वे वर्णधर्मौ समाह्रियते यस्मिन् सः अद्य स्वरितसंज्ञः स्यात् सो यस्मिन् वर्णे उदात्तत्वम् अनुदात्तत्वम् इत्येतौ वर्णधर्मौ समाह्रियेते सो दट् इन् विच् देर् इस् अ मिक्स्चर् आफ् बोत् उदात्तत्व एण्ड् अनुदात्तत्व एस् द वर्णधर्म सो दट् अच् विल् बि काल्ड् त्वरित नौ इफ् यु से उदात्तत्वस्य अनुदात्तस्य अनुदात्तत्वस्य च समाहारः कस्मिन् प्रमाणे वाट् इस् द प्रमाण आफ् बोत् वाट् पर्सेण्टेज् आफ् इट् इस् उदात्त वाट् पर्सेण्टेज् आफ् इट् इस् अनुदात्त इस् अ क्वश्चन् टु बि आन्सर् सो देर् इस् अनदर् सूत्र विच् डील्स् वित् इट् द फोर्थ् पेज् तस्यादित उदात्तम् अर्थह्रस्वम् तस्य आदितः तस्य नाम स्वरितस्य पूर्वसूत्रमस्ति समाहारस्वरितः तस्य आदितः सो फ्रम् द बिगिनिङ्ग् आफ् दट् उदात्तम् अर्धह्रस्वम् सो अर्धह्रस्व हाफ् अह्रस्व विल् बि उदात्त एण्ड् द रेस्ट् विल् बि परिशेषात् उत्तरार्थं तु परिशेषात् अनुदात्तं भवति सो द रेस्ट् विल् बि अनुदात्त सो पाणिनि सीम्स् टु से दट् अर्धह्रस्व अह्रस्व इस् इन् वन् मात्र सो अर्धह्रस्व इस् हाफ् अ मात्र सो हाफ् अ मात्र आफ् स्वरित विल् बि उदात्त एण्ड् द रेस्ट् विल् बि अनुदात्तम् बिकास् इट्स् अ काम्बिनेशन् आफ् उदात्त एण्ड् अनुदात्त आदौ अर्धह्रस्वम् उदात्तं भवति उत्तरार्धम् अन्यत् यदस्ति परिशिष्टं तु अनुदात्तं भवति सो इफ् इट् इस् अ ह्रस्व सो स्वरित केन् बि आन् अ ह्रस्व आन् अ दीर्घ आन् अ प्लुत आन् अ ह्रस्व इफ् इट् इस् अ स्वरित सो इट् इस् हाफ् एण्ड् हाफ् हाफ् अ मात्र इस् अ ह्रस्व हाफ् अ मात्र इस् उदात्त एण्ड् अदर् हाफ् इस् अनुदात्त इफ् इट् इस् अ दीर्घ हाफ् अ मात्र इस् उदात्त एण्ड् वन् अण्ड् हाफ् मात्र इस् अनुदात्त इस् वाट् इट् अपियर्स् लुकिङ्ग् एट् द वर्डन्स् आफ् द सूत्र सूत्रस्वारस्यं तत्रैव इति भाति महाभाषे अपि अर्धहस्वशब्दः अर्धमात्रा इत्यर्थे रूढः इत्यस्ति हरदत्त काशिकाव्याख्याकारस्य हरदत्तस्य मतेऽपि तथैव किन्तु दीक्षितानां मते स्वस्वग्रहणम् अतन्त्रम् इति ह्रस्वग्रहण इस् नाट् रियलि विवक्षित अविवक्षितम् इत्यर्थः इत्युक्ते द ह्रस्व इस् नाट् रियलि इन्सिडेण्ट् तस्य आदित उदात्तम् अर्धम् हाफ् आफ् अ स्वरित इस् उदात्त एण्ड् द अदर् हाफ् इस् अनुदात्त सो इट् इस् अ ह्रस्वस्वरित हाफ् अ मात्र इस् उदात्त हाफ् अ मात्र इस् अनुदात्त इट् इस् अ दीर्घस्वरित वन् मात्र इस् उदात्त द अदर् मात्र इस् अनुदात्त इस् दीक्षित सो हि कोट्स् इन् द मनोरमा हि कोट्स् प्रातिशाख्यस् टु सपोर्ट् हिस् स्टाण्ड् सो प्रातिशाख्यस् आर् also takes on grammar, not grammar, mostly about the Uccharana, Sandhi, etc. related to each shakha. Shakham, shakham, prati. Prati shakham, bhavanti, iti pratishakhyani. So, pratishakhya are the earliest grammatical texts which deal with each shakha. Okay? So, pratishakhya is different for the different Vedic shakhas. They give the rules for Uccharana, for Sandhi, etc. which operate in that particular shakha. So each shaka has some unique properties which are described by the Pratishakhyas. So in the Pratishakhyas which Dikshita refers to, a Swarita is pronounced with half Udatta and half Anudatta and not half a Matra Udatta and the rest Anudatta. And that is what he tries to explain in this sutra. Sattva grahana matantram iti kaumudyam panktihi tattva pratikatvena svikritya atantram iti upeeriyam ityatra upasargaha iva avivakshitam ityarthaha. Avivakshita is not intended. As in, it is not the vivaksha of Panini to say that it is artha rasva, which is actually has been artha. Upeyivan ityatra upasargaha iva. Upeyivan anashvan anucha anashtya iti sutra masti. Ashtadhyayaha, satiyadhyaya, dvitiya pade. Tatra kosu pratyayantaha nipatyante. So, trayaha shabdaha santi tatra. Upeyivan anashvan anucha anashtya. So, these three words are given remade as kasu pratyayan. So they are given as remade. Upeyivan. Upeyivan ityasi. Upa iti upasarga purvakasya dhatoho kasu pratyayan tasya nirdeshaha. Upeyivan iti. So kimasti upasarga sahitaha nirdeshaha nipatyate. So the nipatana is for the form along with the upasarga. But still nirupapadasya dhatoho api ivan iti rupam ishyate. So even without the upasarga, the dhatu will still have this form as ivan. Even though the sutra particularly gives it along with an upasarga, we do see forms of the same dhatu without the upasarga with the pratyaya, which is ivan. Yadyapi sutre upasarga sahitaha nirdeshaha asti, tathapi prayoge upasarga rahitasyapi ayam pratyaya ishyate. So, tatra upasargasya avivakshitatvam iti uchyate. So, even though the upasarga has been told by Panini, it is avivakshita. This is not particular that it has to be with the upasarga. So, tathaiva asmin sutre, hraswagrahanam avivakshitam. So, the hraswa, artha hraswam iti uchyate kila, hraswagrahanam avivakshitam, nato artha grahanam. There is a typing error in the file. So, hraswagrahanam avivakshitam. So, he is not very particular about the hraswa part of it. Tasya adita udattam ardham. Half of a swarita is udatta is what needs to be conveyed. Ataha swaritasya adau ardham udattam bodhyam. Iti sutrartha likhitaha dikshitaihi. So that is how dikshita gives the sutrartha. Hasvagrahana atantam swaritasya adav ardham udattam bodhyam. Uttarathant parisheshat anudattam. So the first half is udatta and the latter half is anudatta. So, there are a few arguments about it. Nanu tatra, eevamsam atistrithaha, ityadi prayoga darshanad, avivaksha astu. Ihatu avivakshayam pramanam kim, iti chet, lakshya darshanam pratishakhyanikam cha, iti grihana. So, there is a question about that. The argument which Dikshita gave was, upeiva nityatra yatha upasargasya avivaksha, tatha atra, hraswagrahanasya avivaksha. Tatra upasarga grahanasya avivakshayam pramanamasti. There is some pramana for saying that upasarga is avivakshita. There is a prayoga. Vede eva prayoga drishyate eevamsam atistrithaha. So prayoga asti ityataha tatra upa iti upasarga grahanam avivakshitam iti vaktum shakyate. Nanu tatra eevamsam atistrithaha ityadi prayoga darshanat avivaksha astu. Ihatu avivakshayam pramanam kim. What is the proof? Well, the pramana for saying that hraswagrahana is avivakshita here. Iti chet lakshya darshanam pratishakhyadikam cha. He says both ways. Looking at the prayoga. Prayogam drishtva. Ityukte svaritaha katham uchariyate. Vastutaha vedamanta uchcharane iti drishtva. Tatha pratishakhyadikam. Pratishakhya yaduktam tadapi drishtva. Etadashi avivaksha iti vaktum shakyate. Katham tathahi yeraha ityatra ekaraha tanunapa chachipatim ityatra padapathe uditau cha ardhodattau iti sakala bhakshrita prasiddham. Says there are two example figures of swarita. Yeraha is one, where ekara is swarita. Tanunapat and Shachipatim. Tanunapat, the ukara on after nakara is swarita. Imam Shachipatim, the ekara after takara is also swarita. Okay. So, atra, padapathe uditau cha ardhodattau. So the ekara of yeraha and the ukara ikara of tanunapat and shachipatin, so they are ardhodattau. They are pronounced with half udatta. Half udatta is in, they are all dirghas, right? Yeraha chatra ekara dirghaha. Tanunapat ityatra ukaraha shachipatin ityatra ikaraha chati dirghaha. So ardhodattau. Desham ucharane ardham udattam. So the half udatta is seen everywhere. See, it is sakala bhakvrcha prasiddham. Bhakvrcha is the Rigveda. These are the mantras from the Rigveda. So anybody who recites or chants the Rigveda will know that they are pronounced with half udatta and not ardha hraswa udatta. Okay, ardha hraswa udatta would mean that a quarter of it would be udatta, only the first half matra. The remaining one and half should have been anudatta. But in actual prayoga, we see that it is half udatta. Yeraha ityatra ekaraha, tanunapat shachipatim ityatra padapathe, uditau cha ardhodattau iti sakala bhakshrita prasiddham. Tanunapat shachipati shabdayoho, ಉಭಯ ವನಸ್ಪತ ಪತ್ಯಾದಿಷು ಯುಗಪತ್ ಇತಿ ಪೂರ್ವೋತ್ತರ ಪದಯೋ ಆದ್ಯುರಾಪ್ತತ್ವೇ ಕೃತೆ ಅನುದಾತ್ತಂ ಪದಮೇಕವರ್ಜಂ ಇತಿ ಶೇಷ ನಿಘಾತಃ. ಸೊ ಹಿ ಗಿವ್ಸ್ ದ ಪ್ರಕ್ರಿಯಾ ಫಾರ್ ಡಿರೈವಿಂಗ್ ದ ಸ್ವರಿತ ಇನ್ ತನೂನಪಾತ್ ಅಂಡ್ ಶಚೀಪತಿ. ಉಭಯತ್ರ ಉಭಯ ವನಸ್ಪತ್ಯಾದಿಷು ಯುಗಪತ್ ಇತಿ ಪೂರ್ವೋತ್ತರ ಪದಯೋ ಆದ್ಯುರಾಪ್ತತ್ವೇ ಕೃತೆ. ಸೊ ಪೂರ್ವ ಉತ್ತರ ದರ್ ಆರ್ ಟೂ ವರ್ಡ್ಸ್ ತನು ಅಂಡ್ ಅಪಾತ್ ತನೂನ್ ಅಪಾತ್ ಅಂಡ್ ಶಚೀಪತಿ. ಉಭಯತ್ರ ಆದ್ಯುದಾತ್ತತ್ವಂ ಕ್ರಿಯತೆ ಉಭಯ ವನಸ್ಪತ್ಯಾದಿಷು ಯುಗಪತ್ ಇತಿ ಸೂತ್ರೇಣ. ತೇನತ್ತ ಇತ್ಯತ್ರ ಅಕಾರಸ್ಯ, ಶ ಇತ್ಯತ್ರ ಅಕಾರಸ್ಯ ಚ ಉದಾತ್ತತ್ವಂ, ಅಪಾತ್ ಇತ್ಯತ್ರ ಅಕಾರಸ್ಯ, ಪತಿಂ ಇತ್ಯತ್ರ ಅಕಾರಸ್ಯಾಪಿ ಉದಾತ್ತತ್ವಂ. ಅನುದಾತ್ತಂ ಪದಮೇಕವರ್ಜಂ ಇತಿ ಶೇಷ ನಿಘಾತಃ. ಸೊ ವಿ ಸಾ ದಿಸ್ ಇನ್ ಎನಿ ವರ್ಡ್, ಒನ್ಸ್ ವಿ ಹ್ಯಾವ್ ಅ ಪರ್ಟಿಕ್ಯುಲರ್ ಸ್ವರ ಫಾರ್ ಒನ್ ಅಚ್, the remaining will automatically become anudatta. This is what shesha nighata shishtam anudattam, the rest will become anudatta. So the rest, which means the ukara ikara, right, tanu napad ityatra ukaraha shachi, tanu ityatra ukaraha shachi ityatra ikaraha evam apad ityatra akaraha patim ityatra ikaraha. So the rest will all become anudatta. Once we have adyudatta for both words, the rest will become anudatta. So purva pada bhutayohu tanu shachi etayor antyasya pakshikam svaritattvam pratishakhye uktam. And the pratishakhya, which of that Veda, which has to be the Ruk pratishakhya, because he says it is from the Ruk Veda. So the tanu shachi etayohu antyasya, so that is the ukara of tanu and the shachi ikara of shachi, antyasya ಪಾಕ್ಷಿಕಂ ಸ್ವರಿತತ್ವಂ. ಪಾಕ್ಷಿಕಂ ನಾಮ ವೈಕಲ್ಪಿಕಂ, ಅನ್ ಆಪ್ಷನಲ್ ಸ್ವರಿತತ್ವ ಇಸ್ ಗಿವನ್ ಇನ್ ದ ಪ್ರಾತಿಶಾಖ್ಯ. ಸೊ ದ ಪ್ರಾತಿಶಾಖ್ಯ ಸ್ಪೆಸಿಫಿಕಲಿ ಸ್ಟೇಟ್ಸ್ ದಟ್ ದೀಸ್ ವಿಲ್ ಬಿ ಸ್ವರಿತ. ಜಾತ್ಯವದ್ವಾ ತಥಾವಂತೌ ತನುಷಚಿ ಇತಿ ಪೂರ್ವಯೋ ಇತಿ, ತನುಷಚಿ ಇತಿ ಪೂರ್ವಯೋ ಜಾತ್ಯವತ್. ಸೊ ಜಾತ್ಯ ಅತೋನ್ಯ ಸ್ವರಿತಂ ಸ್ವಾರಂ ಜಾತ್ಯಮಾಚಕ್ಷ್ಯತೆ ಪದೇ ಇಸ್ ಡೆಫಿನೇಷನ್ ಫಾರ್ ಜಾತ್ಯ. ಉದಾತ್ತ ಸ್ವರಿತ ಪೂರ್ವ ಸ್ವರಿತಾದ ಅನ್ಯ ಏಕಪದೇ ಸ್ಥಿತ ಸ್ವರಿತ ಜಾತ್ಯ. ಸೊ ಜಾತ್ಯ ಇಸ್ ಅ ಪರ್ಟಿಕ್ಯುಲರ್ ಕೈಂಡ್ ಆಫ್ ಸ್ವರಿತ. ಓಕೆ, ಸೊ ಜಾತ್ಯವದ್ವಾ ತನುಷಚಿ ಇತಿ ಪೂರ್ವಯೋ. ದ ಪಾಕ್ಷಿಕ ಮೀನ್ಸ್ ಆಪ್ಷನಲ್, ನಾಟ್ ಪಾರ್ಷಿಯಲ್, ಪಕ್ಷೇ. ಸೊ ಇನ್ ಒನ್ ಕೇಸ್ ಇಟ್ ವಿಲ್ ಬಿ ಸ್ವರಿತ, ಇನ್ ದ ಅದರ್ ಕೇಸ್ ಇಟ್ ವಿಲ್ ನಾಟ್ ಬಿ ಸ್ವರಿತ. ಓಕೆ, ಸೊ ಜಾತ್ಯ ಇಸ್ ಅ ಪರ್ಟಿಕ್ಯುಲರ್ ಕೈಂಡ್ ಆಫ್ ಸ್ವರಿತ. ಸೊ ದ ಪ್ರಾತಿಶಾಖ್ಯ ಸೇಸ್ ದ ತನು ಶಚಿ, ಸೊ ದ ವರ್ಡ್ಸ್ ವಿಲ್ ಬಿ ಹ್ಯಾವ್ ಅ ಪಾಕ್ಷಿಕ ಸ್ವರಿತತ್ವ. ತಥಾ ಸ್ವರಿತಸ್ಯ ಸ್ವರಿತಾರ್ಥಸ್ಯ ಉದಾತ್ತತ್ವ ಪ್ರಾತಿಶಾಖ್ಯಂ ಅಪಿ. ನೌ ಹಿ ಗೋಸ್ ಆನ್ ಟು ಗಿವ್ ದ ಎವಿಡೆನ್ಸ್ ಫ್ರಮ್ ಪ್ರಾತಿಶಾಖ್ಯ ಆನ್ ಸೇಯಿಂಗ್ ಇಟ್ ಇಸ್ ಅರ್ಧೋದಾತ್ತ. ಏಕಾಕ್ಷರ ಸಮಾವೇಶೇ ಪೂರ್ವಯೋ ಸ್ವರಿತ ಸ್ವರ ತಸ್ಯೋದಾತ್ತತರೋದಾತ್ತಾದ ಅರ್ಧಮಾತ್ರ ಅರ್ಧಮೇವ ವಾ ಅನುದಾತ್ತ ಪರಶೇಷ ಸ ಉದಾತ್ತ ಶ್ರುತಿರ್ನ ಚೇತ್ ಉದಾತ್ತಂ ವೋಚ್ಯತೆ ಕಿಂಚಿತ್ ಸ್ವರಿತಂ ವಾಕ್ಷಣಂ ಪರಂ. ಸೊ ದಿಸ್ ಇಸ್ ಅ ಕೋಟ್ ಫ್ರಮ್ ಅಗೇನ್ ದ ಪ್ರಾತಿಶಾಖ್ಯ.
अर्थः So this is again from the Moola itself. It should also be in red. So we are in page 7 of notes. So please ask me if you have any difficulty in following the notes. Saptama prishthe asti. Ekakshara samaveshe purvayohu svarita svaraha. Sasyodattatara udattad arthamatra arthamevava. Anudatta parashyeshaha saudatta shrutirnachet. Udattam vochyate kinchit svaritam vaksharam param iti. So this is a quote from the Pratishakya. What does it say? Ekakshara samavayashe purvayohu. He has defined the udatta and anudatta. Purvayohu ekakshara samaveshe. When both of them, that is the udatta and anudatta, ekakshara samaveshe, when they come together in a single letter, svarita swaraha, that swara will be called anudatta. That is what he says. Udattatva anudattatve varanadharmau samahriyete yasmin. सोच स्वरित सम्यः स्यात् सो एकाक्षर समावेशे पूर्वयोः स्वरित स्वरः तस्य उदात्ततरा उदात्तान् अर्थमात्रा अर्थमेव वा तस्य नाम स्वरितस्य अर्थमात्रा अर्थमेव वा उदात्ततरा उदात्तात् उदात्ततरा सो देन इट विल बी उदात्ततरा एक्चुअली द दिस विल बी हायर देन उदात्त That is more udatta. Udattad udattatara ardhamatra. Half amatra is udatta. That is, it is something more than udatta. Udattatara ardhameva va. First he says ardhamatra. Then he says ardhameva. Not just half amatra. If it is rasva, it is half amatra. If it is dirga, ardhameva. Half of the dirga itself will be udattatara. Anudattah parashyeshaha, paraha, the other, or the latter, sheshaha, whatever is left, after that will be anudatta. So after the half, first half, the second half will be anudatta. So udatta shrutir nachet, udattam vochyate kinchit svaritam vaksharam param. So this will come later. So he says asyarthaha, purvayoho, udattatva anudattatvayoho. Ekatra samaveshe sati svarito bodhyaha. So when udattatva and anudattatva come together, it will be svarita. Tasya svaritasya svatantra udatta pekshaya udattatara ardhamatra bodhya. So half a matra should be considered as udattatara. That is more udatta. Udatta pekshaya udattatara. So there is a level in which the udatta is told. So this is more udatta. So it is not exactly udatta, something more, very similar to a nidatta. Svatantra udatta apekshaya udatta tara ardhamatra bodhya. So ardhamatra is with reference to a hraswa. Kvavoshvaha ityadi hraswa viprayam. So where a hraswa is varita, ardhamatra will be udatta. Udatta tara and the rest will be anudatta. Ardhamva iti dirgha viprayam. So, the Pratishakya says, ardhamatra ardhameva va. So, the ardhamva is with reference to a dirgha. So, this is in page 8 of the notes. Ardhamva iti dirgha abhiprayam. Anenaiva hrasvasyapi sangrahat vyapakatvat idameva adartavyam iti suchaitum evakaraha. So, he says, ardhamva refers to a dirgha. So, in a dirgha, ardha, half, which is one matra, will be Udattatara. Anenaiva hrasvasyapi sangrahat. So he does not have to say ardhamatra. Kevalam ardham udattam bhavati ityukte hrasve ardhamatra udatta tatha dirghe ekamatra udatta iti siddhyati. Anenaiva hrasvasyapi sangrahat vyapakatvat. So since it covers more, it covers both hrasva and dirgha. Idameva adartavyam. This only should be considered. Iti suchaitum evakaraha. That is why it is ardhameva. So whether it's a hasvardhika, it is half which will be udattatara. Anudattaha ityadi parishesha siddhartha kathanam. So parisheshat sa anudattah paraha. Right? So the half, latter half will be parashesha. Whatever is left will be anudatta. Saha udatta shrutir nate. So there is some more.
స ఉదాత్త శృతిర్న చేత్ ఉదాత్తం వోచ్యతే కించిత్ త్వరితం వాక్షరం పరం. సో ద లాటర్ హాఫ్ ఇట్ విల్ డిపెండ్ ఆన్ ద ఫాలోయింగ్ స్వర. ఇఫ్ ద ఫాలోయింగ్ స్వర ఇస్ ఉదాత్త ఆర్ స్వరిత, దెన్ వి హియర్ ద అనుదాత్త క్లియర్లీ. సో విచ్ ఆల్సో సేస్ ఇన్ ద కౌమరి, ఉత్తరార్ధం తు పరిశేషాత్ అనుదాత్తం తస్య చ ఉదాత్త స్వరిత పరత్వే శ్రవణం స్పష్టం. So if there is an udatta or a swarita following this particular swarita, then we hear the anudatta clearly. If there is an anudatta which follows this swarita, then you do not hear the anudatta properly. It will be heard as udatta. Tasya cha udatta swarita sparatve shramanam spashtam, anyatra tu udatta shrutihi pratishakhye prasiddha. So there also he says, otherwise, if it is not followed by an udatta or swarita, స ఉదాత్త శ్రుతిహి నచేత్ ఉదాత్తం వోచ్యతే కించిత్ స్వరితం వా అక్షరం పరం. పరం అక్షరం, ద ఫాలోయింగ్ లెటర్, ఉదాత్తం వా స్వరితం వా న ఉచ్యతే చేత్. సో ఇఫ్ ఇట్ ఇస్ నాట్ టోల్డ్ అస్ ఉదాత్త ఆర్ స్వరిత, దెన్ దిస్ ద లాటర్ హాఫ్ విల్ ఆల్సో బి ఉదాత్త శ్రుతిహి. సో ఇఫ్ ఇట్ ఇస్ ఉదాత్త ఆర్ స్వరిత ఫాలోయింగ్, వి హియర్ ద అనుదాత్త, అదర్వైజ్ ఇట్ విల్ బి ఉదాత్త. సో హి సేస్ సహ శేష ఉదాత్త శ్రుతి స్యాత్ కిం అవిశేషేణ న ఇత్యాహ న చ ఇత్యాది ఉదాత్త స్వరిత పరం విహాయ. సో ఇన్ కేసెస్ వేర్ దెర్ ఇస్ నో ఉదాత్త ఆర్ స్వరిత ఫాలోయింగ్, ద లాటర్ హాఫ్ విల్ ఆల్సో బి ఉదాత్త. ఇఫ్ దెర్ ఇస్ అ ఉదాత్త ఆర్ స్వరిత దట్ ఫాలోస్, ద లాటర్ హాఫ్ విల్ బి అనుదాత్త. సో శాకల్య అపి ఆహ, దిస్ ఇస్ ఫ్రమ్ వన్ ప్రాతిశాఖ్య. So he gives example from another pratishakya of shakalya. Aprakritastu yasvaraha svaritodatta purvagaha udadayardhavasyatha shishtam nighanti kampitam. So that swara, which is svarita udatta purvagaha, which is precedes a svarita or a udatta, udadaya ardham asya, udadaya nama udattam krtva, అస్య అర్ధం ఉదాత్తం కృత్వా. సో ఫర్ సచ్ స్వరిత అర్ధ హాఫ్ విల్ బి ట్రీటెడ్ అస్ ఉదాత్త. శిష్టం నిఘ్నంతి, ద రెస్ట్ ద అదర్ హాఫ్ ఇస్ మేడ్ అనుదాత్త. నిఘాత ఇస్ అనదర్ టర్మ్ ఫర్ అనుదాత్త. శిష్టం నిఘ్నంతి. సో హి ఆల్సో సేస్ ఇన్ అ స్వరిత విచ్ ఇస్ ప్రిసీడింగ్ అ స్వరిత ఆర్ అన్ ఉదాత్త, దట్ ఇస్ వెన్ అ స్వరిత ఇస్ ఫాలోడ్ బై అనదర్ స్వరిత ఆర్ అన్ ఉదాత్త, ardham udadaya, half will be made udatta and the rest will be made anudatta. So keeping all this in mind, this is what Dikshita says, page 9, etat sarvam manasi nidhaya uktam dikshite kaumudyam ka panktihi svaritasya adau ardham udattam bodhyam uttarardham tu parisheshad anudattam. So the latter half parishesha, that is when you say half is udatta, it means the rest is anudatta. Tasya cha udatta svarita paratve shravanam spashtam. So when this anudatta, that is this swara, is followed by udatta svarita, shravanam spashtam, anudatta se shravanam spashtam bhavati. Anyatra tu, so if it is not udatta svarita, udatta shrutihi pratishakhe prasiddha. So it will also be treated as udatta. So this is what Dikshita says, and he gives pramana. What is the pratishakhya pramana for his statement? Ardha shastra shabdena ardha matra lakshyate iti haradattadi granthastu matantara parataya kathan chinyaha. So the haradatta clearly says that ardha shastra means ardha matra. Bhashyepi ardha shastra shabdaha ardha matrayam rudaha iti uchyate. So kathametat iti uchyate matantara parataya. So this is with reference to the current pratishakshas. Okay, so there are many other pratishakshas. It's called each shakha is associated with a different pratishakha. And in Patanjali's time, there were 1121 Veda shakhas. Currently, there are around 9. So there were lot then. So then there would have been pratishakha for different things. So there might be differing views in different pratishakshas. But according to the current pratishakhya, he says, ardham udattam, ardham anudattam, ityeva nyayam. Any questions? Yes. Sorry, what is the first? I didn't hear the first part of yours. Yes. Yeah, that is what we don't know, because those do not exist. There are many cases where see, Panini Vyakarana is one which tries to treat both Vedic and Laukika Shabdas. So, there are cases where it might there you might find exceptions in particular Vedas. Okay. So, this is always a case where there are so many Vedas, so many Shakhas and so many differences. It is to be expected that it might not be able to cover anything, but Panini has tried in general to put a general rule. Okay. So there are certainly exceptions, and with regard to Vedas, we have to accept exceptions, and Pratishakya will be the authority for a Veda than Vyakarana. But as a general rule, yes, even in the Vedic things, Paninian rules are accepted. Otherwise, I mean, all Vedic rules might be treated as not required, because generally, the Vedas will have their own exceptions, but he tries to give a general ruling for the Vedas, even though there are exceptions. So there, it might not be the ultimate authority, but it is certainly helpful in understanding what is the general rule. Okay, so. Yogesh Mahadeva. न श्रूयते किञ्चित् उच्चैः उच्यताम् हा श्रूयते हा क्षम्यतां बहु न्यूनमस्ति संथिङ्ग् वाल्यूम् किञ्चित् अधिकं कर्तुं शक्यते वा ऐ एम् नाट् एबल् टु हियर् यू बहु न्यूनः अस्ति स्वरः यूज्वलि ऐ हियर् यू वेल् बट् टुडे इट्स् वेरि लो हा उच्यताम् इदानीं श्रूयते हा तदेव उच्यते अत्र तदेव उच्यमानमस्ति अर्थम् आदौ अर्धम् उदात्तं भवति अन्य उत्तरार्थम् अनुदात्तमिति ये तु वेदमन्त्रान् पठन्ति तेषां स्यात् इत्युक्ते उच्चारणे भेदः ज्ञायत अस्माभिस्तु न ज्ञायते इति सत्यं किन्तु उच्चारणे तथा भेदः भवति सर्वत्र प्रातिशाख्येष्वपि अस्ति पाणिनिः अपि दत्तवान् इत्युक्ते तत्र आदौ उदात्तः भवति अन्ते अनुदात्तः इति उदात्तस्य किं प्रमाणम् अनुदात्तस्य किं प्रमाणम् इत्यत्रैव भेदः आदौ उदात्तत्वं भवति अनन्तरम् अनुदात्तत्वम् इत्यत्र मतभेदः नास्ति उदात्तस्य किं प्रमाणम् अनुदात्तस्य किं प्रमाणम् इत्यत्रैव मतभेदः तत्तु श्रूयते इत्युक्ते उच्चारणे तथा श्रवणे ज्ञायते यदि सः संस्कारः अस्ति वेदमन्त्रोच्चारणस्य तत्तु तदेव उच्चारणं तु प्रतिवेदं भिद्यते प्रतिशाखं च भिद्यते तद् अत एव प्रातिशाख्यानि सन्ति सामान्यतः केचन नियमाः सन्ति ये पाणिन्या दीयन्ते प्रातिशाख्येष्वपि दीयन्ते तत्र अस्तु अग्रे सरामः सरितस्य कानिचन उदाहरणानि दत्तानि दीक्षितैः क्वोश्वाः रथानां नयेराः इति तेषां विवरणं ददाति क्व इति किमो अत् किं शब्दात् निष्पन्नः क्व शब्दः क्व इति अव्ययम् किमः अत् किं शब्दस्य अत् इति आदेशः भवति तत्र अत् इत्यस्य तित्त्वमस्ति तकारः इत्सम्यकः तित् स्वरितम् इत्यनेन स्वरितं भवति सो द क्व इस् स्वरिता बिकास् आफ् द तित् तकार बीङ्ग् इत् क्वोश्वाः वः इति अनुदात्तं सर्वमुपादादौ इति अधिकारात् अनुदात्तम् अश्वाः इति अशेः क्वनि नित्स्वरेण आद्युदात्तम् सो द अश्वाः इन् वः द वकार विल् बि अनुदात्त अकार विल् बि अनुदात्त अश्वाः इत्यत्र अशेः क्वन् अशुधातोः क्वन् इति प्रत्ययः नित् स्वरेण आद्युदात्तम् सिन्स् क्वन् इस् नित् नकार इस् इत् इन् क्वन् इट् विल् बि आद्युदात्त नित्यादिर्नित्यम् इति सूत्रं तेन आदिः उदात्तः अश्वाः इत्यत्र अकारः उदात्तः वः इत्यत्र वस् इत्यत्र अकारः अनुदात्तः अश्वाः इत्यत्र अकारः उदात्तः संहितायां तु एकादेश उदात्तेन उदात्तः इति ओकारः उदात्तः सो वि निरुद सन्धि बिकास् इट् इस् बीन् एन् एकादेश वित् उदात्त द होल् थिङ्ग् वो श्वाः वो ओकार विल् बि उदात्त and then yeraah dvayopi phit sutrena antodattam so ye araah both of them pratipadika will be antodatta ekadeshastu pakshe svaritah so the ekadesha is given a pakshika svarita svarita vanudatte padadav ityukte hai okay, so he is giving examples for how he is derived svarita for the different I mean how is svarita derived in the different examples that he has given so that's not very important because we have not studied the Vedic prakriyas and this. So, agrivam sutramasti siddhanta kaumutyam mukhanasika vachanonu nasikaha. Mukhasahita nasikaya uchcharyamanaha varnaha anunasika samyahasyat. Iti sutrathaha. So, a letter which is pronounced mukhasahita nasikaya with some mouth part along with the help of the nose is called anunasika. मुखनासिका इत्यत्र कथं विग्रहः मुखसहितनासिकया इति तेनैव दत्तं मुखसहिता नासिका मुखनासिका सो मध्यमपदलोपि समासः सो तत्र किमर्थं तादृशः अर्थः स्वीकृतः मुखं च नासिका च इति किमर्थं उक्तं सो द वैस् द विग्रह नाट् गिवन् अस् मुखेन नासिकया च सो वित् द मुख एण्ड् द नासिका किमर्थं मुखसहितनासिकया इति चेत् मुखं च नासिका च इति विग्रहे प्राण्यङ्गत्वात् एकवद्भावे मुखनासिकम् इति स्यात् सो इट् वुड् हेव् बीन् इट् वुड् नाट् हेव् बीन् मुखनासिका इट् शुड् हेव् बीन् मुखनासिकम् वै मुखं च नासिका च इति विग्रहे सो इष्ट विग्रह हेपन्स् टु बि मुखं च नासिका च प्राण्यङ्गत्वात् एकवद्भावे देर् विल् बि एकवद्भाव दिस् अ सूत्र द्वन्द्वश्च प्राणिसूर्यसेनाङ्गानाम् प्राण्यङ्गानां तूर्याङ्गानां सेनाङ्गानां च द्वन्द्वः एकवद्भवति एकवद्भवति इत्युक्ते समाहारद्वन्द्वः इत्यर्थः सो इट् इस् अ कम्पल्सरि समाहारद्वन्द्व इफ् इट् इस् अ द्वन्द्व आफ् आर्गन्स् आफ् एनिमल्स् आर् आफ् म्यूसिकल् इन्स्ट्रुमेण्ट्स् आर् आफ् आर्गन्स् आर् द डिफ्रेण्ट् पार्ट्स् आफ् एन् आर्मी सो सिन्स् मुख एण्ड् नासिका आर् प्राण्यङ्गस् इफ् इट् इस् अ समाहारद्वन्द्व मुखनासिकम् समाहारद्वन्द्वः नपुंसके भवति इत्यतः मुखनासिकम् इति प्रयोगः स्यात् मुखनासिका इति न भवति अतः मुखसहिता नासिका मुखनासिका इति क्रियते सो देट् इस् वै हि गिव्स् द विग्रह अस् मुखसहितनासिकया उच्चार्यमाणः वर्णः तुल्यास्य प्रयत्नं सवर्णम् इत्यग्रिमं सूत्रं ताल्वादिस्थानम् अभ्यन्तरप्रयत्नश्च यस्य येन तुल्यं तन्मिथ सवर्णसंज्ञं स्यात् सवर्णसंज्ञाविधायकम् इदं सूत्रम् किमुच्यते ताल्वादिस्थानम् अभ्यन्तरप्रयत्नः च यस्य येन तुल्यम् सो इट् आल्वेज़् रेफर्स् टु अ पेर् आफ् लेटर्स् सो यस्य वर्णस्य ताल्वादिस्थानम् अभ्यन्तरप्रयत्नश्च yena tulyam so where it is equal between a pair of letters the sthana and abhyantara prayatna tat mitha savarna samyam syat that will be savarna of each other तत्र सूत्रे किमस्ति तुल्य आस्य प्रयत्न इत्यस्ति आस्यम नाम मुखम इत्यर्थः स्थानम इत्यर्थः कथम सो आस्य जनरली मीन्स जस्ट द फेस और द माउथ ओके इट इज यूज्ड फॉर बोथ सो इट जस्ट मीन्स द एंटायर माउथ सो तालवारि स्थानम इत्यर्थः कथम लभ्यते इत्युक्ते आस्ये भवम आस्यम This is here, Asya is a Tadhitanta derived from Asya. So the original Asya means the mouth. Asya bhavam Asyam. So that which is in the mouth is the different sthana. Talu, murdha, kantha, etc. So Asya bhavam Asyam iti vikrahe, shariravayavadyata iti abhipretya aha talvadi iti. So you have the Asya, the word Asya, tasmate shariravayavadya janena yat pratyaha kriyate. Asya ya ityasti. This is page 12 in the notes. So, tatra asya ityatra akarasya asya ticha ityanena lopaha asya ya ityasti. Anantaram haloyamam yami lopaha ityanena purvasya yakarasya lopaha. The yakara of asya is deleted, so it becomes asya asya. So, asya bhavam asyam. Now, this word, the derived word will mean That which is present in the mouth. So there, what is it that is present in the mouth? The different parts. Dantaha, oshtav, talu, murdha, etc. Ata eva, talvadisthanam. Iti uktam. Tulyam asyam. If you just take it as a mouth, all the letters are pronounced with the mouth. So all letters should have to be savarnas of each other. Right? So that does not make sense. That is why he says, talvadisthanam. How does he get the meaning that talvadisthanam? Asyam ityukte. Asya bhavam asyam namasthanam. Prayatnaha. Abhyantara prayatnaha. Sutre abhyantara prayatnaha iti na nirdishyate. Kevalam prayatnam ityasti. Katham abhyantara prayatnaha iti chet. Abhyantare iti. Etacha pra shabda balat labhyate. Because of the pra. We just have been yatna. Okay. Yatna dvidha. He goes on to say yatna. Right? Yatna is the effort in pronouncing the letters. Now he says pra. What is pra? Prakrishtaha yatnaha prayatnaha. The special kind of prayatna. What is the prakarsha in the abhyantara prayatna? Varnadhi vyakti avyavahita prakala bhavatvam. So what is the difference between abhyantara and brahya prayatna? Abhyantara prayatna is the one which is involved just before a letter is pronounced. So abhyantara prayatnaha varnotpatehe prakalikaha. Bahya prayatnastu anantara kalikaha. It is after the varna is pronounced. So now the prakarsha is varnabhivyakti avyavahita prakala bhavatvam. So that prayatna which takes place just before a varna is pronounced. So that is the one which is most involved in pronouncing the letter. That is why it is prayatnaha. Prakarsh prakarshtaha yatnaha. Prakarshaha nama varnabhivyakti avyavahita prakala bhavatvam. Ata eva. Prayatna shabdena abhyantara prayatnaha eva sikriyate na tu bahya prayatnaha. Ata eva sutrartha hasti talvadisthanam abhyantara prayatnascha yasya yena tulyam. Tan mithat savarna samyam syat. Trayodasha prushte, the 13th page of the notes. Tulyasyam kim. So ubhayam samanam bhavet iti kim artham. Talvadisthanam api tulyam bhavet abhyantara prayatnaha api. Tulyasyam kim, sthanatauliyam bhavet iti kim artham iti cheta tarpta. Tarpta iti udaharanam diyate. Atra pakarasya takare pare jharojhari iti lopo nama bhoot. Tarpta kim asitta rekhaha pakaraha takaraha. Jharojhari savarne iti sutram asti. Halahparasya jharaha lopaha vasyat savarne jhari. So halahparasya jharaha. So jhar which is Following a hal. So there is a consonant. Any hal. Following it is a jhar. So savarne jhari pare. If this jhar is followed by a savarna jhar, there is an optional lopa. Now, there is repha, which is hal. Halahparasya jharaha nama pakarasya. Savarne jhari pare lopaha. If pakara is followed by a savarna jhar, there should be lopa. The sutra does not say tulyasya. Kevalam tulya prayatnam, abhyantara prayatna tauliyena yadi savarna samya vidhiyate, tarhi pakara takarayoho parasparam savarnyam syat. Kimartham, ubhayoho sprishtaha prayatnaha samanaha. The abhyantara prayatna is the same. కాదయో మామసానా స్పర్శాః కకారాదారభ్య మకార పర్యంతం సర్వేషాం స్పృష్టః ప్రయత్నః ప్రయత్నతౌల్యమస్తి కింతు స్థానతౌల్యం నాస్తి వకారస్య స్థానం ఓష్ఠౌ సకారస్య స్థానం దంతాః అతః అనయోః సావర్ణ్యం నాస్తి సావర్ణ్యాభావాత్ లోపః న భవతి they are not savarnas because they differ in their sthana atayeva tulyasyam sthanatauliyam api apekshyate yadi sthanatauliyam napekshyate tarhi atra api lopah syat so if sthanatauliya is not a condition for savarnya then there would have been lopah here which is not desired that is why sthanatauliya is a factor in savarnya prayatna grahanam kim వై ప్రయత్న గ్రహణ కేవలం స్థానతౌల్యం భవతు తుల్యాస్యం సవర్ణం ఇది కిమర్థం నోచ్యతే ఇది చేత వాక్శ్చోతతి శస్య లోపో న సమానం వెరీ సిమిలర్ ఎగ్జాంపుల్ వాక్ షు చ ఇత్యస్తి కకారః హల్ తస్మాత్ పరః షకారః ఝర్ చకారోపి ఝర్ సవర్ణే ఝరి పరే పాక్షికః లోపః లౌ షకార చకారయోః స్థానం సమానం they have the same sthana shakarasya api talu sthanam chakarasya api talu sthanam prayatnastu bhinnah vivrata prayatnah shakarasya chakarasya tu sprishta prayatnah so if there is a difference in prayatna also there is no savarnya yadi savarnyam kya tari atra chakarasya lopah syat so that is why savarnya is not desired if there is only sthana taulya or prayatna taulya two letters to be called savarnas should be equal in both sthana and prayatna tadeva talvadi sthanam abhyantara prayatnah cha yasyena tulyam tam yatha savarna samyam syat tatah sthananam nirdeshah asti kaumudyam aguha visarjaniyanam kanthah visheshanam talu pritarshanam murdha లచరసానాం దంతాః ఉపూపద్మానీయానాం ఔష్ఠౌ ఇతి ఉక్త్వా న్యమగణనానాం నాసికా చ ఇతి ఉచ్యతే న్యమగణన వర్గాణాం పంచమాక్షరాణి అనునాసికాః భవంతి అతః తేషాం నాసికా చ ఇతి ఉచ్యతే న్యమగణనానాం ఇతి పేజ్ 14 నాసికా చ ఇతి చకారేణ స్వస్వ వర్గానుకూలం తాళ్వాది సముచ్చీయతే సో సిన్స్ ఇట్స్ నాసికాచ ఇట్ ఇస్ నాట్ జస్ట్ ద నోస్ నాసికాచ ఇది చకారేణ స్వస్వ వర్గానుకూలం తాళ్వాది సముచ్చీయతే సో ద చకార బ్రింగ్స్ ఇన్ ద స్థాన ఫర్ దట్ పర్టిక్యులర్ వర్గ ఆల్సో సో అనునాసికాస్ ఆర్ ప్రొనౌన్స్ విత్ ద హెల్ప్ ఆఫ్ ద నోస్ అండ్ ద స్థాన ఆఫ్ దట్ పర్టిక్యులర్ వర్గ ఫర్ ఎగ్జాంపుల్ దెర్ ఇస్ న్య ఇచ్చేషానాం తాలు ఇత్యనేన చవర్గస్య తాలు స్థానం విధీయతే అతః న్యకారస్య తాలు నాసికా చ సో ఇట్ ఇస్ ఇట్ ఒరిజినేట్స్ ఫ్రమ్ ద తాలు అండ్ ద నాసికా సిమిలర్లీ ఫర్ ద మకార ఇట్ విల్ బి ఓష్ఠౌ అండ్ నాసికా నాసికా చ ఇతి చకారేణ స్వ స్వ వర్గానుకూలం తాళ్వాది సముచ్చీయతే సో హి గివ్స్ అ ప్రమాణ ఫర్ ఇట్ ఫ్రమ్ ద ప్రాతిశాఖ్య ఆల్సో అనుస్వారోత్తమ అనునాసికాః అనుస్వారః ఉత్తమః ఉత్తమ ఇస్ ద లాస్ట్ దట్ ఇస్ ద లాస్ట్ లెటర్ ఆఫ్ ద వర్గ ద లాస్ట్ లెటర్ ఆఫ్ ఈచ్ వర్గ అనునాసిక దే విల్ బి అనునాసికాః సో నాసికాం అనుగతాః సో నాసిక ప్లస్ ద స్థాన యమానుస్వార నాసిక్యానాం నాసిక అనునాసికాశ్చ ఉత్తమాః ఇది కాత్యాయన ప్రాతిశాఖ్యం తైత్తిరీయ ప్రాతిశాఖ్యే ఉచ్యతే కాత్యాయన ప్రాతిశాఖ్యేపి ఉత్తమాః అనునాసికాః సో తస్య భాష్యే అస్తి వర్గోత్తమాః వర్గస్య ఉత్తమాః ఉత్తమ డస్ నాట్ మీన్ ద బెస్ట్ ఇట్ మీన్స్ ద లాస్ట్ ఓకే ద ఫైనల్ వన్ సో వర్గోత్తమాః న్యమగణనాః అనునాసికాః భవంతి చ శబ్దాత్ అనునాసికాశ్చ ఉత్తమాః ఇత్యస్తి ప్రాతిశాఖ్యే చ శబ్దాత్ స్వస్థానాది అపరిత్యాగేన నాసికాస్థానం ద్వితీయం ఏషాం ఇత్యర్థః సో బికాజ్ ఆఫ్ ది చకార దే డు నాట్ గివ్ అప్ దేర్ ఒరిజినల్ స్థాన స్వస్థానాది అపరిత్యాగేన వితౌట్ గివింగ్ అప్ దేర్ స్థాన నాసికాస్థానం ద్వితీయం ఏషాం నాసిక ఇస్ ద సెకండ్ స్థాన సో దే హ్యావ్ బోత్ దేర్ ద రిటైన్డ్ ఒరిజినల్ స్థాన అండ్ ద నాసిక ఇది తద్భాష్యం చ ఏ ततः इन्द्रयितोः कण्ठतालु ओदौतोः कण्ठोष्ठम् इत्यस्ति. तत्र एत् ऐत् ओत् औत् सर्वत्र तकारः श्रूयते. किमर्थम् इति प्रश्नः. इस् इट् तपरकरण? वि हेव् तपरस्तत्कालस्य. तः परः यस्मात् सः, तात्परश्च उच्चार्यमाणसमकारस्य इव संज्ञा स्यात्. इस् देर् इस् तपरकरण विद् दिस् लेटर् इस् फालोड् आर् प्रिसीडेड् बै तकार, इट् विल् रेफर् टु ओन्ली दट् पर्टिक्युलर् काल. इफ् यु से अत् इट् मीन्स् ह्रस्वकार, इफ् यु से आत् इट् मीन्स् दीर्घाकार ओन्ली अण्ड् नाट् ह्रस्व आर् प्लस. सो अत्र एत् इत्युक्ते केवलं दीर्घ एकारस्य कण्ठतालुस्थानं, दीर्घ ऐकारस्य च, एवं दीर्घ ओकार उकारयोः कण्ठोष्ठम् इत्यर्थः वा इति प्रश्नः. एदैतोः इत्यादौ तपरत्वम् असन्देहार्थं, न तु तत्कालग्रहणार्थम्. इट् इस् नाट् फार् तत्कालग्रहण, दट् इस् इट् इस् नाट् तपरकरण. तत्कालग्रहणार्थं न, केवलम् असन्देहार्थम्. इफ् देर् इस् नो तकार इन् बिट्वीन् इफ् यु से ए ऐ, सो वृद्धिः भवति ऐ इत्येव श्रूयते, एकारः पृथक्तया न श्रूयते. इफ् देर् इस् नो सेपरेटिङ्ग् लेटर् इन् बिट्वीन् ए एण्ड् ऐ, you will hear only I because of the sandhi. Then the question will be, is the sthana only for aikara or for both A and I? So, asandehartham, to prevent that confusion, he has separated A and I with a takara. A is I. Iti prithaktaya uchyate asandehartham natu tatkala grahanartham. Tena plutasya api sangrahaha. Ataha pluta ekarasya pluta ikarasya api kanthatalu sthanameva. Evam pluta okarasya pluta ukarasya api कण्ठतालु स्थानमेव. अर्था वा चित्त अहं दृष्ट्वा वदामि, स्पष्टं नास्ति. ऐ डोण्ट् रिमेम्बर् द मीनिङ्ग् आफ् द धातु. अहं दृष्ट्वा सूचयामि. अभ्यन्तरप्रयत्नः बाह्यप्रयत्नः इति वयमपि मुखस्य अन्तरे एव भवति. किमर्थम् अभ्यन्तरं बाह्यमित्यत्र विवरणं तु तदेव दीयते. वर्णोत्पत्तेः प्राक् यः प्रयत्नः दृश्यते मुखादिषु काल्वादिस्थानेषु, सः अभ्यन्तरः. वर्णोत्पत्त्यनन्तरं यः दृश्यते सः बाह्यप्रयत्नः इति. अतः वर्णोत्पत्तेः पूर्वं यत् भवति तस्यैव प्रकर्षत्वम् इति व्याख्यानात् stop here for today. Next class we will go into Purvatra Siddham. Okay, so please recollect the concept of Purvatra Siddham from the Siddhanta Kaumudi, and then we will okay. So Jayam Jayam Param Brahma Smaram Smaram Gurur Giraha Siddhanta Kaumudi Vyakhyam Kurmas Taudhamanoramam.